नमस्सर्वेभ्यः। अद्य कृदन्तवर्गे नवमः पाठः, मे मासस्य विंशः दिनाङ्कः। अद्य वयं नुल् प्रत्ययान्तानां भिन्नेषु लिङ्गेषु कथं रूपाणि भवन्ति, भिन्नासु विभक्तिषु च कथं प्रयोगः क्रियते इति पश्यामः। आदौ मङ्गलम्। योऽन्तः प्रविश्य ममवाचनिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरस्वधाम्ना अन्यांश्च हस्तचरणश्रवणत्वकादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम्। गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे। न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो। गुल् प्रत्ययान्तानां विषये केचन अंशाः अस्माभिः अधीताः। नुल् प्रत्ययः वु इति प्रत्ययस्य भागः वस्तुतः भवति, तस्य स्थाने अक इति आदेशः, अतः प्रयोगे सर्वत्र नुलन्तस्य रूपस्य अक इत्यन्तं श्रूयते। यथा नायकः, कारकः, पाचकः इत्यादि। अयं कर्त्रर्थकः प्रत्ययः, अर्थात् यस्मात् धातोः नुल् प्रत्ययः भवति तस्याः क्रियायाः कर्तारं बोधयति। यथा पच् धातोः नुल् प्रत्ययः पाचकः पाकक्रियायाः कर्ता, एवं कारकः करणम् इति या क्रिया तस्याः कर्ता, नायकः नयनक्रियायाः कर्ता इति अर्थः भवति। यः पचति सः पाचकः, यः गायति सः गायकः, यः बोधयति सः बोधकः इत्यादि। भिन्नानां धातूनां नुलन्तरूपाणि कथं सिद्ध्यन्ति इत्यपि अस्माभिः दृष्टम्। एतदेव नुलन्तेषु प्राधान्यम् आवहति, यतोहि प्रयोगः प्रायेण सरलः नुलन्तस्य, तत्र दोषाः न भवन्ति। किन्तु रूपं कथं भवति इत्यत्र केचन नियमाः स्मर्तव्याः। आकारान्तानां धातूनां मध्ये आ इति धातोः अन्ते भवति, अक इति प्रत्ययः, मध्ये यकारः आगमः भवति, आयक इति श्रूयते, दा अक दायक, धा अक धायक इत्यादि। एजन्ताः ये धातवः ए औ ए ओ ऐ औ इत्येतदन्ताः, तेषाम् आकारः आदेशः भवति, पुनः आकारस्य अकारान्तानां यकारागमः, तत्रापि आयक इति भवति। गै अक गा अक गायक, एवं हुए अक ह्वा अक ह्वायक इत्यादि भवति। इकारान्ताः धातवः तत्र वृद्धिः भवति, इकारस्य ईकारस्य वा ऐ इकारः आदेशः, तस्य अकारे परे आयादेशः, तत्रापि आयक इति श्रूयते। श्री अक श्रै अक श्रायकः, एवं नी अक नै अक नायकः इत्यादि। उकारान्तानां धातूनाम् अपि वृद्धिः, औ कारः तस्य आवादेशः, अतः आवक इति रूपं भवति। स्तु अक स्तौ अक स्तावक, एवं भू अक भौ अक भावक इति रूपम्। ऋकारान्तानां धातूनां वृद्धौ आर् इति भवति, कृ अक कार अक कारक, एवं तृ अक तार अक तारक इति रूपम्। अदुपधाः धातवः अर्थात् अकारः उपधायाम् उपधा नाम उपान्तिमः वर्णः सः यदि ह्रस्व अकारः तर्हि तत्र तस्य अकारस्य स्थाने आकारः आदेशः भवति सो पठ् अक पाठ् अक पाठकः पच् अक पाच् अक पाचकः इत्येवं भवति इदुपधाः धातवः उपधायां ह्रस्वः इकारः अस्ति चेत् इकारस्य एकारः आदेशः लिख् अक लेख् अक लेखकः छिद् अक छेद् अक छेदकः इत्येवम् उदुपधानां धातूनां तु उकारस्य स्थाने ओकारः पुष् अक पोष् अक पोषकः मुद् अक मोद् अक मोदकः इत्यादि ऋदुपधानां धातूनां ऋकारस्य स्थाने अर् इति आदेशः भवति सो वृध् अक वर्ध् अक वर्धकः स्पृश् अक स्पर्श अक स्पर्शकः इत्येवं रूपाणि भवन्ति एते सामान्यनियमाः भवन्ति रूपसिद्धौ तत्र केचन विशेषाः अपि सन्ति विशेषरूपाणि यत्र सामान्यनियमः न प्रवर्तते सो वेर् द नार्मल् रूल्स् डु नाट् अप्लै तथा भवति यथा हन् धातुः हन् धातोः सामान्यरीत्या हानकः इति भवेत् किन्तु विशेषं विशिष्टं सूत्रमस्ति किमर्थं विशेषः इति चेत् सूत्रमस्ति अतः घातकः इति रूपं भवति यः हन्ति सः घातकः एवं जनधातोरपि दीर्घः न भवति जनकः इति रूपं न तु जानकः इति सो मृज् धातुः वस्तुतः अर् इति आदेशे मर्जक इति भवेत् किन्तु मृज् धातोः विशेषः मार्जकः इति रूपं वृद्धिः दीर्घः भवति एवं जागृ धातुः तत्र वृद्धौ ऋकारान्तानां यथा कारक तारक एवं जागारक इति भवेत् किन्तु तत्रापि दीर्घः नास्ति गुणः जागरकः ओके सो दीस् फोर् थिङ्ग्स् हेव् टु बि रिमेम्बर्ड् स्पेसिफिकली So there are specific sutras which I'll mention at the end at the last section but so for general purpose you just have to remember that these dhatus take a special form which does not conform to the normal rules. Tathaiva nijanteshu kashchana visheshah asti ityapi drishtavantah yatra akarah asti upadhayam nijanteshu tatra निजन्तप्रयोगे यदि दीर्घः तर्हि नुलन्ते अपि दीर्घः भवति यथा ताडयति ताडकः क्षालयति क्षालकः लालयति लालकः यत्र तु निजन्तरूपे ह्रस्वः श्रूयते तत्र नुलन्ते अपि ह्रस्वः कथयति कथकः गणयति गणकः इत्यादि अत्रापि कारणम् अस्त्येव सो सूत्रं यदा सूत्राणि पठामः तथा जानीमः वाट् इस् द रूल् विच् गवन् इदानीं तु निजन्तप्रयोगं दृष्ट्वा तदनुगुणं ज्वलन्तस्य रूपम् अपि भवति एवमेव स्पृहयति तत्रापि स्पृहयति स्पृहकः न तु स्पर्हकः तत्र गुणः न भवति पूर्वमपि दृष्टं ल्युडन्ते अपि स्पृहणं स्पृहणीयं स्पृहकः कुत्रापि स्पृह धातोः गुणः न भवति अत्रापि न भवति स्पृहकः इत्येव रूपम् अमन्तानां धातूनां विषये अपि कश्चन विशेषः दृष्टः तत्र मूलधातुः यदि उदात्तः तर्हि अम् इति अन्ते अस्ति, वस्तुतः दीर्घः भवेत् अदुपधः इति कारणेन, किन्तु मूलधातौ स्वरः यदि उदात्तः तर्हि दीर्घः न भवति. रमकः शमकः इत्यादि दृष्टं, यत्र तु मूलधातौ उदात्तः नास्ति, अन्यः स्वरः अस्ति, यथा गम धातुः गामकः, क्रम धातुः क्रामकः इत्यादि दृष्टं, यत्र यत्र नम धातुः नामकः, यत्र उदात्तस्वरः अस्ति तत्र दीर्घः न भवति, अन्यत्र दीर्घः भवति इति एकम् एकः नियमः वर्तते. So knowing these rules, you should be able to derive the forms of all the dhatus that we have selected for our study. Okay, so there are other rules, okay, which we have not touched here for other dhatus. Samanyataha etaihi niyamaihi tat bhavati. So the kridanta list, I had mentioned last class that there was no special exercise for last class. So I had asked you to fill up the forms. I just looked at the sheet. I could not look at it in detail, but I found that there are several errors. So maybe some of you can go back to the sheet and try to check if the forms there are correct, and if you can spot the mistakes and correct the forms according to the rules which we have discussed. So I will look through them at the end and we will correct. So etavat asmabhihi adhitam. So if you have any questions regarding what we have studied so far, please ask. Otherwise we will look at the other aspects of mul today. Varadhan Mahodaya, Prashna Hastaha.
What is nijanteshu in the earlier slide?
Nich is the causal suffix, like or the suffix of the tenth gana. The aya which we hear in the forms of the tenth gana, say chorayati, kathayati, ganayati. So that aya, it is a vikarana pratyaya called nich. So this that rule applies to dhatus of the tenth gana, where we follow the form. So there was one more question on why this O is included here in the Ejanta Dhatu. So that the sutra says Aad Echaha Ejanta Nam Dhatu Nam. H is A-O-I-O. So even Au could be here, but there are no Dhatus ending with Au as far as I could find out, especially not in our list. So I didn't include Au. But all four letters, any of these, A, O, I, O, at the end of a dhatu is converted to akar. So it's because, I mean, that is a rule common to H. A, O, I, O, all four letters are covered. Rajalakshmi, Mahoday, Prashna Hastaha.
Suprabhata.
Suprabhata.
भवती उक्तवती हन् हन्ति रूपः घातकः इति भवति. कन्नडभाषायां हन्तकः इति शब्दः अस्ति.
सत्यं.
संस्कृते हन् हन्ति हन्तकः इति न भवति
वा? न भवति, न भवति. तत्तु संस्कृताभासः. कन्नडभाषायां तथा बहूनि पदानि सन्ति वस्तुतः इत्युक्ते संस्कृत मूलम् इति भाति, किन्तु वस्तुतः संस्कृते न भवति. हन्तक इति पदं संस्कृते नास्ति. घातकः
धन्यवादः.
So Swamiji, you just take that ajantah, of course those are the h, and you add aka to it. And then whatever Sandhi rules pertain to that is what happens.
What happens? You get avadesha.
Yeah. Okay.
So
I or off.
There is a dhatu like so, you would get savakaha. And what we actually need is sayakah.
Oh, okay.
So
yeah.
Plus akka becomes sav akka, savakka. So.
So you get the ayaka. But then, ayaka. But okay, even when you have the O, you still get the ayaka added. I see. But then you get a sandhi rule for that.
Yes.
Between the A and the O. I get it now. Okay, so that was just a little bit hard for me to follow. I got it now. Thank you.
Venkateshwaran
Mahade. Madam, this roots are divided into 10 conjugational classes. And then the 1 to 10. And you mentioned about this 10th Gana or 10th group. Like that, in the list, in the Excel sheet, what are those roots belonging to particular group 1 to 10? Can that division be done?
It's already there, right? The division is there. The Gana is mentioned, So you have Dhanvadi, Tuvadadi, etc. So it mentions both the class and the number of the Gana.
Okay.
This column is the punctuation.
Okay. Yeah.
Well, Soumyaji, what I still don't understand is you're getting the sandhi between O and ayaka?
No. The O becomes A, then you have A plus aka, then you have a year in between.
But then you mean you don't get the V sound like ayaka? That's already there. The V is already there. That's it. So,
sorry?
You're not getting a V sound in there then. That's not occurring. You're just completely replacing the O with I.
Yes. O is replaced by A, and then you have A plus Aka. So the Yakara comes in between. So you get A, Yu, Aka, Ayaka.
Okay, and that's just going to be the same whether it's A, O, or I.
Yes. All
right. Okay. Thank you.
Antima prashna for now. Then we take the others later. Mohanan,
Suprabhatam. Can we not save the Excel spreadsheet?
Should be able to download it.
Okay. No, it didn't come. That's why I could not. I could not save it.
You may not be able to share it to others. You can make a copy for yourself and then you can share that.
Okay. Make a copy and okay. Thanks. Dhanyavaad.
It should also be a download.
Okay.
So, agre gachhamah. Etan prayogan avalokayatan. Pingalo nama ikshendro lokasyananda dayakah. Jasti Mahabharate Kashchit Pingalaha Nama Yakshendraha Yakshanam Raja Kashchit Lokasya Ananda Dayakaha Jasti Ayodhya Mathura Maya Kashi Kanchi Avantika Puri Dwaravati Chaiva Saptaitaha Moksha Dayikaha Iti Anyaha Shlokaha Prasiddhaha Shlokaha Sapta Nagaryaha Santiyatra Ayodhya, Mathura, Maya, Kashi, Kanti, Avantika, Puri, Dwaravati, Ittyevam. Right? Vastitahatra, Ashtau, Santi. There are actually 8, but I mean, this is a very famous shloka. I'll check it out for us. Or maybe the Puri here does not refer to a specific city. It refers to the city called Dwaraka. Anyway, Saptaitaha Moksha Dayikaha. Okay. So you have dayakaha, dayika, dayika, bahuvachane dayika. So divya nama kirtanam bhukti mukti dayakam. So dayakaha, dayika, dayakam. Iti trishu lingeshu api prayogaha bhavati. Visheshyasya anugunam yasya visheye uchyate. Yakshendraha ananda dayakaha. Etaha, etaha nagariyaha iti sthrilinge. Etaha moksha dayikaha. Kirtanam bhukti mukti dayakam. So kirtanam, divyanama kirtanam. So reciting or chanting the names, divine names. So that gives bhukti and mukti. So bhukti is pleasure in this world, mukti is salvation. So kirtanam dayakam, kirtanam iti napumsakalinge, ataha bhukti mukti dayakam. So etaha nagaryaha moksha dayikaha, yakshendraha dayakaha. So depending on who is the karta. Okay. So you have different lingas for the volanta. Okay. So it's very easy to understand. So anyaha prayogaha samanaha savarnadirghaha vyakaranasya vishaye uchyate savarnadirghaha yanaha badhakaha. So badhaka is overruled. So savarnadirgha sandhi overrules yan sandhi, the rules. So anekalshit paribhasha alontya paribhashayaha badhika. Riddhirechi iti sutram adgunaha iti sutrasya badhakam. So don't worry about what we are talking about. I just wanted to illustrate the usage. So savarna dirghaha pullinge badhakaha paribhasha badhika sutram badhakam ityevam nulanta rupana lingatraye api rupani bhavanti karakaha karika karakam. Tatra stri linga rupe ikaraha bhavati akarasya. So we have karaka karika karakam. So nayakaha nayika nayakam. Pachakaha pachika pachakam. Pujakaha pujika pujakam. Samanyataha pulingasya strilingasya prasiddhihi bhavati. Kintu yatha drishtam tatha napumsakalinge api prayogaha bhavitum arahati. So when the napumsakalinga is the karta, yatha karta divyanama kirtanam bhukti mukti dayakam iti kirtana shabdaha napumsakalinge. Eva mama mitram nayakam. So if you have the words in napumsakalinga, you can also have the forms, but the common usage is of pullinga or strilinga, okay, when we are referring to person. Trishu lingeshu api rupani bhavanti prayogaha bhavanti. Atra prashnaha kutaha ikaraha iti. So there is a sutra. So pratyasthatkat iti sutra vashat ikaraha bhavati sarvatra bhavati. So sarvatra strilinga rupe pratyaha ika ityeva shoyate natu aka iti. Akarasya sthane ikaraha adeshaha vidhiyate. So idani abhyasaha atra kim lingam iti drishtva rupam vaktavyam. E vaktum icchanti kripaya hastam uttolayantu. Ramesh Mahoday.
Prabhatam. Sangeetam Anandadayakam. Kata Anandadayika. Pataha Anandadayakaha. Satyam Anandadayakam. Bhaktihi Anandadayika. Dhyanam Anandadayakam. Chandraha Anandadayakaha. Deva Anandadayika.
Linganugunam pratyayantasya rupam vidyate. So Anandadayaka is that which is delightful. Adrimam preraka. Preraka is an one who inspires. Yaha preranam dadati, prerayati. Saha prerakaha, prerika, prerakam iti rupam bhavati. Venkateshwaran.
Mata prerika. Pita, pita preraka, prerakaha. Guru prerakaha.
Guruho prerakaha.
Mitram prerakam. Patni prerika. Kutu prerakam. Bandhuhu prerakaha. Putri prerika.
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 Atrimaha abhyasaha vrittayah vrittihi, I mean profession. So atra vritti shabdaha profession ityarthe prayuktaha. So yat kurvanti. So many of the names of professions in Sanskrita are derived or can be easily derived based on mul. Kim karyam karoti iti drishtya tasya nama bhavitum arhat. Okay. So many of them are derived, and we can also generate if you can express it in the form of an action. So it can also be expressed as the karta, the person who does it. Tatra kinchir abhyasam kurmaha. Kriya padam diyate tasya pullinge strilinge cha kim rupam bhavati iti vaktavyam. Pumsakalinge api bhavati kintu abhyasam evam kurmaha. Yatha doctor. Vaidyaha iti prasiddham padam asti. Kintu vaidya shabdaha pullinge eva asti, strilinge nasti. Ataha anyadapi padam bhavitum arhati. Chikitsati. He who cures. Kim padam bhavati iti vaktavyam. Rao.
Yeah, good morning. Doctor, male chikitsakaha. Female chikitsika.
Chikitsakaha, chikitsika.
Nurse, paricharati. Paricharakaha. Paricharika.
Char dhatu. Kim bhavati.
Paricharakaha, paricharika.
Paricharakaha, paricharika.
Policeman, arakshati. Arakshakaha, arakshika.
Samyak. Rakshakaha, rakshika, ityapi bhavitum arahati. Prasiddhaha prayogaha, a iti upasargena saha. Arthaha samanaha, a samanta nama sarvatra rakshati ityarthe a iti upasargaha. Rakshakaha rakshika iti bhavati, a rakshakaha arakshika ityapi bhavati. Harmandar Singh.
Singha gayati gayataha gayika.
Gayakaha gayika.
Answer, nrityati nartakah nartika. Teacher, adhyapayati अध्यापकः अध्यापिका.
पाचकः
पाचिका.
कुक् इज़ पाचकः पाचिका.
चालकः चालिका.
चालयति यः चालयति. तत्र यानानां नामानि अपि योजयितुं शक्यानि, यथा विमानचालकः, रेल्यानचालकः इत्यादि.
तक्षकः तक्षिका.
तक्षकः तक्षिका. सो तक्षति इस् टु एक्चुअली शेर् आर् कट् वुड् टु पील् आर् टु मेक् स्लैस्. सो तेषु अर्थेषु तक्ष धातुः अस्ति. तक्षकः तक्षिका इति कार्पेण्टर्, यः काष्ठकर्म करोति सः तक्षकः अथवा सा तक्षिका इत्युच्यते.
शेषक्रिया फार्मर् कर्षति. कर्षकः कर्षिका.
कर्षकः कर्षिका.
विक्रीणाति. विक्रायकः विक्रायिका.
विक्रायिका.
परिवेशयति. परिवेशकः परिवेशिका.
परिवेशकः परिवेशिका. तत्र एतादृशशब्देषु समासः अपि कर्तुं शक्यते, यथा उद्यानं पालयति. पालयति इत्यस्य णुलन्तः भवति. तत्र उद्यानस्यापि योजनेनापि पदं प्राप्तुं शक्यते. महादेव
दादन उद्यानं पालयति. उद्यानपालकः. उद्यानपालिका.
उद्यानपालकः उद्यानपालिका.
पोस्ट्मन् पत्रं वहति. पत्रवाहकः पत्रवाहिका.
पत्रवाहकः पत्रवाहिका.
पेण्टर् इस् वर्णं वर्णं लेपयति. वर्ण लेपकः वर्णलेपिका.
वर्णलेपकः वर्णलेपिका. सम्यक्. पाल्
न्यूस् रीडर् बार् वार्तां वक्ति.
वच् धातुः. हेलो, cannot hear you. Hello, are you speaking? I can't hear you.
No.
न श्रूयते.
I don't know why. You can hear me now?
Yes, I can hear you now.
Okay, I don't know what happens then. Okay. Vartavaktika.
No, vach dhatu. So you have vach, like pach becomes pachaka. So vach becomes
pachaka. Okay. Vartavaktika.
वार्ता वाचिका
गाः पालयति
गो शब्दः
yeah so it would, so actually go palakah
go palika
there goes sir keshan alankaroti okay so Kesha, okay, let's see, Kesha Lang, Tarakaha, okay, yeah, Kesha, that O becomes I, yeah, right? Kesha.
Kru becomes Karaka. The dhatu is Kru. Alangman Kru.
Karaka. Oh. Kesha Alang. Kesha Lang Karaka. Kesha Lang Karika.
Samik. Kesha Lang Karaka. Kesha Lang Karika. So Alam and Kru is the dhatu there. So Karaka. Karika.
Right. Thank you.
Idani pratipadikam pashyamaha nul pratyayantam hrasva akarantam. So in the pullinga, so kru aka becomes karaka, pach aka pachaka. So asmat strilinge a iti pratyahasti, so it becomes karaka a. And then the A becomes E, so you get Karika. So, Sarveshu Lingeshu, Vachaneshu, Vibhaktishu cha, Rupani, Bhavanti, Pratipadikasya. So, Saralam, Pullingaha, Akarantaha, Pullingaha, Pachaka Shabdaha, Rama Shabdavad Rupani. Okay. Visheshaha, Kopinasti, Pachakaha, Pachakau, Pachakaha, Kevam, Sarvasu Vibhaktishu, Rupani, Bhavanti, Sambodhana Prathamayamapi, Bhavati. Atra kevalam sapta vibhaktayah pradarshitaah sambodhanam prathamayam api bhavati he pachaka iti prayogah api bhavati strilinge napumsakalinge api akarantah napumsakalingah pachaka shabdah phala shabdavad rupani bhavanti so prathama vibhaktau dvitiya vibhaktau pullinga shabdat rupam bhidyate pachakam pachake pachakani पाचकं पाचके पाचकानि अन्यत्र सर्वत्र पुल्लिङ्गस्य यथा रूपं तथैव रूपं भवति स्त्रीलिङ्गे तु आकारान्तः स्त्रीलिङ्गः रमा शब्दवत् पाचिका पाचिके पाचिकाः पाचिकां पाचिके पाचिकाः इत्येवं रूपाणि सो द फॉर्म्स आर वेरी ईजी सो इट सेंस आकारान्त इन पुल्लिङ्ग एंड नपुंसकलिङ्ग स्त्रीलिङ्गे तु सामान्यतः आकारान्त शब्दवत् रूपाणि भवन्ति अत्र अन्यः अभ्यासः समुचितरूपेण रिक्तस्थानं पूरणीयं किं वचनम् इत्यादि दृष्ट्वा पूरणीयं भवति धातुः दीयते शेषप्रिया
अस्माकं नायकाय राष्ट्रहिताय कार्यं कुर्युः
नायकाः अस्माकं नायकाः सो आवर लीडर्स शुड वर्क
ओके
फॉर द हित ऑफ फॉर व्हाट एवर इज गुड ऑफ द नेशन सो कुर्युः इति बहुवचनम् अतः नायकाः अस्माकं नायकाः Rashtrahitaya Karyam Kuryuh. Our leaders should work for the good of the nation.
Apsarasaha. Okay. Gayakaha Nartakaha.
Apsaraha, it is Srilinga Shabd. Apsaraha, Apsaraha, Apsarasau, Apsarasaha.
Okay. Gayakaha Nartakaha.
Srilinga.
Gayikaha Nartikaha.
Same. Apsarasaha, Gayikaha Nartikaha. So the Apsaras trees, the divine dancers, they are singers and dancers. Gayikaha, Nartikaha, Cha. Sundara Raman. Nashruyate. Cannot hear you. श्रूयते महोदय कृपया मैक् सम्यगस्ति वा इति परीक्षणं करोतु आदित्य
गुरुभ्यो नमः अस्मिन् विद्यालये उत्तमाः बोधकाः सन्ति
अस्मिन् विद्यालये उत्तमाः बोधकाः सन्ति सो देयर आर गुड टीचर्स इन दिस स्कूल इंस्टिट्यूट
Ashwini Kumaro Devana Chikitsakau.
Ashwini Kumaro Devana Chikitsakau. They are the doctors of the gods.
Deva Mandirani Samskritehe Poshakani.
Poshakani. So, Sakaraha asti ataha nakaraha bhavati. Poshakani. So, Deva Mandirani. So, the temples are the that which nourish our Samskriti. So, Deva Mandirani Samskritehe Poshakani. So, evam lingam vachanam anusritya prayogaha kartavyaha. So, we have to look at what is the linga and what is the Vachana also. Jinnasu vibhaktishu nulantana prayogaha katham bhavati iti kanichana udaharanani pashyamaha. So we will see a few examples. It's actually sarvasu vibhaktishu prayogaha sulabhataya kartum shakyaha. Yatha bala shabdasya sarvasu vibhaktishu prayogaha bhavati evameva pachaka shabdasya api bhavati nayaka shabdasya api bhavati. Ataha tatra visheshaha kopi nasti. Sarvasu vibhaktishu prayogaha bhavati kechana prayogaha darshyante. So sambodhana prathama vibhaktau prayogaha bhavati. Smabhi drishtam lyudantasya aniya pratyantasya va prayena sambodhanam na sambhavati. So it is not possible. Kintu astetattu kartaram bodhayati ityataha bahudha sambodhanam api bhavitum arhati. Etattu sangeetasya kachit kritihi asti. Mutuswami dikshitanam kritihi. Tatra Srinilotpalanayike, Jagadambike, Srinagaranayike, Mamava Varadayike. Iti Pallavi bhagaha. Prathamaha bhagaha. Geetasya. Tatra Srinilotpalanayike. Nayika. Nilotpalanayika. Iti Devyaha nama. So Nayike. Iti Sambodhanam, he rame, evam he naike, jagadambike, Srinagara naike, Srinagaram, Srinagara nivasini, ataha Srinagarasya naika, sambodhanam, mam ava, mam raksha, varadayike. So naika, daika, iti, strilinge rupam, tasya sambodhane. So he addresses Bhagavati and says, mam ava, protect me. Atra sambodhana prathama vibhaktehe prayogaha drishyate. Naike evam दायिके वरदायिका इति शब्दः वरदायिके इति सम्बोधनम्. द्वितीया विभक्तिः बहुत्र स्तोत्रेषु प्रयुज्यते. प्रसिद्धः अयं श्लोकः. उदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् अनायकैकनायकं विनाशिदेभदैत्यकं नताशुभाशुनाशकं नमामितं विनायकम्. महागणेशपञ्चरत्नस्तोत्रम् इति स्तोत्रस्य नाम. तत्र प्रथमः श्लोकः. तत्र चत्वारि पदानि नुल् प्रत्ययान्तानि सन्ति. साधकं सदा विमुक्तिसाधकः, यः मुक्तिं साधयति, हि हू अचीव्स् मुक्ति. विलासि लोक रक्षकं, हि हू प्रोटेक्ट्स् द पीपल् हूर् आर् द वर्ल्ड्. अनायक एक नायकं, हू इस् द लीडर्. नत अशुभ आशु नाशकम्, अशुभनाशकः, he who destroys whatever is ashubha, not good for those who are devoted. Evam sadhakam sarvatra namami ityatra anvayaha tadrisham vinayakam namami. So sadhakam rakshakam nayakam nashakam vinayakam namami. So atra sarvatra dvitiya vibhaktehe hai prayogaha drishyate. भगवद्गीतायाः अयं श्लोकः. दोषैरेतैः कुलग्नानां वर्णसङ्करकारकैः उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः. एतैः दोषैः भगवद्गीतायाः प्रथमाध्याये अयं श्लोकः. अर्जुनः वदति, विशीदन् वदति, यदि युद्धं करोति तर्हि किं किं भवति? तर्हि तत्र कुलस्य नाशः भवति, प्रदुष्यन्ति कुलस्त्रियः, स्त्रीषु दुष्टा सुवार्ष्णेय, जायते वर्णसङ्करः इत्येवं बहून् दोषानुक्त्वा. एतैः दोषैः कीदृशाः दोषाः? वर्णसङ्करकारकैः, वर्णसङ्करं कुर्वन्ति. सो दोस् विच् विल् क्रियेट् वर्णसङ्कर. सो कारक इति शब्दः. सो बिकास् आफ् दीस् आर् बै दीस् दोषास् जातिधर्माः कुलधर्माश्च उत्साद्यन्ते. सो द धर्म विल् बि अप्रूटेड् इति. तत्र कारकैः इति तृतीया विभक्तेः प्रयोगः बहुवचने. दोषैः कारकैः, वर्णसङ्करकारकैः दोषैः धर्माः उत्साद्यन्ते इति अन्वयः. तत्र तृतीया विभक्तेः प्रयोगः दृश्यते. अन्यः अपि श्लोकः अस्ति. कविभिः वन्दिभिश्चैव गायकैः पाठकैस्तथा नित्यं वेदैस्तूयमानः श्रीनिवासः परात्परः. वेङ्कटेश्वरस्य महिमा परकं किञ्चित् स्तोत्रम्. सो नित्यं वेदैः स्तूयमानः, सो कान्स्टेण्ट्लि हू इस् बीङ्ग् प्रेस्ड् बै द वेद, आल्सो बै कविभिः बै पोयट्स्, वन्दिभिः दोस् हू बो डौन् बै डिवोटीस्, गायकैः पाठकैस्तथ. सो गायकाः दोस् हू सिङ्ग्, दोस् हू रीड् औट्. सो नित्यं वेदैः स्तूयमानः श्रीनिवासः. सो श्रीनिवास हू इस् कान्स्टेण्ट्लि बीङ्ग् प्रेस्ड् बै आल् दीस्, सो बै द सिङ्गर्स् एण्ड् बै द रीडर्स्. सो गायकैः पाठकैः इति अत्रापि तृतीया विभक्तेः प्रयोगः दृश्यते. चतुर्थी विभक्तिः. यत्र यत्र स्तोत्रेषु नूलन्तं दृश्यते तत्र सर्वत्र चतुर्थी विभक्तिः उपयुज्यते एव. एतत्तु प्रसिद्धं ललिता अष्टोत्तरशतनामावली. तत्र पदद्वयम् उदाहरणत्वेन प्रस्तूयते. एकातपत्रसाम्राज्यदायिकायै नमो नमः. सो शी हू ग्राण्ड्स् एकातपत्र साम्राज्य. एकातपत्रं नाम एकच्छत्रं, साम्राज्यं. सो द किङ्ग्डम् वेर् ही इस् द सुप्रीम् रूलर्. सो सुप्रीमसि इत्यर्थः. तद् ददाति एकातपत्र साम्राज्यस्य दायिका, तस्यै नमो नमः. नमः शब्दयोगे चतुर्थी भवति. samasta deva danuja prerakayai namo namaha. So there is a preraka here. Ayam prayogaha drashtavyah, because danulanta should be prerika. Eta drishtva vadami. Ayam prayogastu asti. Stotre asti prerakayai namo namaha ityasti. He who inspires devas and danujas. Preraka iti katham bhavati iti drashtavyam. So samanyataha prerika yatha daika evam prerika iti bhavet. So chaturthi vibhaktehe prayogaha drishyate. Shashti vibhaktehe ayam shlokaha. Archakasya tapo yogat archanasya atishayana abhirupyatya bimbana devaha sannidhyam gacchati. So devaha sannidhyam gacchati. So we do worship, say, in an image or an idol. Tatra vastutaha bhagavataha sannidhyam kada bhavati. So when does the deity really reside in the image? So it says three factors are responsible. Archakasya tapo yogat. So yaha archakaha, yaha pujam karoti, tasya tapo yogat. So the power of his penance. Saha sarvada atyantam tapasvi bhavet archakaha. So he should be very principled and very controlled. Tasya tapasaha prabhavena devaha sannithyam rikshati. So the deity will actually reside in the bimba. Atayeva yeshu kshetreshu atyantam tapasvinaha archakaha asan tesham kshetranam mahima atyantam vishishyate. Archanasya atishayana. Archanam iti yudantam. Okay. So archanam is the act of worship. Atishayana, which is excellent. So he should himself be a very controlled and tapasvi. And the act of worship, the worship should be done in the correct manner, excellently. Archanasya, archana kriyayaha atishayanat, abhirupyatya bimbana. So bimbam, the idol itself should be abhirupam, which should be according to the rupa. That is according to the shastras, whatever is told in the shastras for that particular deity. So if it is prepared accordingly, so tada devaha sannidhyam richati. Vastataha bhagavan tasmin bimbe nivasati. So archakaha archanam iti ubhayamasti. Archakaha yaha archanam karoti saha archakaha. So archakaha iti kartrathe nul pratyayaha. Archanam iti tu kriyayam bhavarthe yut pratyayaha. So we have studied both these. Archakasya tapo yoga archanasya atishayanat abhirupyatya bimbanam devaha sannithyam rachyati. So shloka pujakasya tapo yoga dityapi bhavitum arhati. So pathantaram vidyate. So even that should be fine if there is a pathantara. So evam bhinnasu vibhaktishu nulantasya prayogaha bhavati. Kanichana udaharanani drashtani anyasu api bhavati maya apradarshitasu vibhaktishu. So panchami vibhaktehe saptami vibhaktehe prayogaha api bhavati. Maya etavanti udaharanani adhuna prastutani. Prakashchana abhyasaha sanyojanam. So atra bhinnasu vibhaktishu rupam diyate. Tasya katham kena vakyena sanyogaha bhavati iti.
नमस्ते. अध्यापकः बोधयति.
अध्यापकः बोधयति.
अध्यापकं नमामि.
अध्यापकं नमामि.
अध्यापकेन छात्राः पाल्यन्ते.
अध्यापकेन छात्राः पाल्यन्ते. सो द स्टूडेंट्स आर टेकन केयर ऑफ बाय द टीचर.
अध्यापकाय पुस्तकं ददामि. अध्यापकस्य यानम्
यानम्
अध्यापके अध्यापके विश्वासः भवेत्.
सम्यक्. So just an illustration of using the word in different satyapake vishwasah bhavet. There must be trust in the teacher. Satyapakasya yanam, the vehicle of the teacher. Anyesham vakyanam arthaha jnayate iti bhavayami. So antimaha amshaha yul pratyayante karmapadasya prayogaha. Nulantam yada bhavati tada karmapadam shashti vibhaktau bhavati. Yatha shakani pachati, cooks the vegetables. Shakani iti dvitiya. So yada nulantasya prayogaha kriyate shakanam pachakaha athava shakanam pachika iti bhavati. Prayoge tu samanyataha samasa prayogaha api bahudha drishyate. As we have seen many examples, the nulanta is commonly combined with the karmapada. Okay? So, shakapachakaha, adhava shakapachika, it is karmapadam, yada vigrihitam upayujyate, tada shashti vibhaktau bhavati, samasapadaha api kartum shakyate, sulabhataya. Okay? So, you can easily make it into a samasa to avoid that vibhakti. Kintu vibhakti yada bhavati, tada shashti vibhakti भवेत्. षष्ठी विभक्त्या षष्ठी तत्पुरुष समासः भवति. एवं जनान् नयति, जनानां नायकः, जनानां नायिका. सो अस्यैव समासे जननायकः अथवा जननायिका इति भवति. लङ्कां दहति, लङ्कायाः दाहकः, लङ्कायाः दाहिका. सो लङ्कादाहकः, लङ्कादाहिका इति समासः. फलं चिनोति, सो प्लक्स् द फ्रूट्. सो फलस्य चायकः, चि धातुः चायकः इति रूपं. सो फलस्य चायकः, फलस्य चायिका. समासे कृते फलचायकः, फलचायिका. व्याकरणं बोधयति, सो व्याकरणस्य बोधकः, व्याकरणस्य बोधिका. सो समासः अपि व्याकरणबोधकः, व्याकरणबोधिका. सो द समस्तपद इस् वेरी पापुलर् वित् नुलन्त. Exactly, because it is very easy. Okay? You don't have to think of the vibhakti, you just join it. किन्तु विभक्तिः षष्ठी विभक्तिः भवेत्, न तु द्वितीया विभक्तिः. सो अस्य अभ्यासं कुर्मः. क्रियापदं दीयते, तस्य षष्ठी विभक्तिम् उपयुज्य, नुलन्तम् उपयुज्य वाक्यं रचनीयम्.
विमानं चालयति, विमानस्य चालकः, विमानचालकः.
विमानस्य चालकः अथवा विमानस्य चालिका समासे तु सत्यं. विमानचालकः, विमानचालिका.
आभरणानि चोरयति, आभरणानां चोरकः, आभरणानां चोरिका, आभरणचोरकः, आभरणचोरिका.
सम्यक्. सो आभरणानि चोरयति, आभरणानां चोरकः, आभरणानां चोरिका. समासे आभरणचोरकः, आभरणचोरिका. मोहन महोदय.
सज्जनान् पीडयति, सज्जनानां पीडकः, सज्जनानां पीटिका, सज्जन पीटकः, सज्जन पीटिका.
सम्यक्. अग्रिमम्
मी ओन्ली
ओके
सुवर्णं तोलयति सुवर्णतोलकः सुवर्णतोलिका सुवर्णं सुवर्ण
सुवर्णस्य
सुवर्णस्य तोलकः सुवर्णस्य तोलिका
सुवर्णस्य तोलकः सुवर्णस्य तोलिका हि हू वेस् गोल्ड् सुवर्णतोलकः सुवर्णतोलिका श्रीधरमूर्ति
कुलं दीपयति कुलस्य दीपकः कुलस्य दीपिका कुलदीपिका अथवा कुलदीपकः
सम्यक् सो कुलदीपकः कुलदीपिका कुलस्य दीपकः कुलस्य दीपिका नेक्स्ट् वन् भवानेव श्रीधर्म
धेनुः धेनूनां धातुरूपं किं वा भगिनि ओ धेनूनां दोहक वा दोहक धेनूनां दोहकः धेनूनां दोहिका धेनु दोहकः धेनु दोहिका
सम्यक् धेनूनां दोहकः हि हू मेक्स् द कौस् इत्यर्थः एवं यदा कर्मपदस्य प्रयोगः क्रियते पृथक्तया क्रियते चेत् षष्ठीविभक्तौ प्रयोगः समासेनापि प्रयोगः कर्तुं शक्यते इत्येवं नुल् प्रत्ययान्तस्य ओ इतोपि अस्ति sentences with the karma pada Soumya unmute yes sir
Suprabhatam katham likhati कथायाः लेखकः
फीलिङ्ग्
कथायाः लेखिका
कथायाः लेखकः कथायाः लेखिका समासे
कथा लेखकः और कथा लेखिका गृहं निर्माति गृहस्य निर्मायकः गृहस्य निर्मायिका समास विल् बि गृहनिर्मायकः गृहनिर्मायिका
वरदन्
पर्वतम् आरोहति पर्वतस्य आरोहयकः
आरोहकः
आरोहकः पर्वतस्य आरोहिका समासः पर्वतारोहकः पर्वतारोहिका
सम्यक्
सस्यानि वर्धयति सस्याः
षष्ठी
सस्यानां वर्धयकः
वर्धकः
ओ वर्धकः वर्धिका सस्य सस्य वर्धकः सस्य वर्धिका
सम्यक् रामप्रिय
अंगान गणयति अंगानां गणयकः गणकः गणिका
अंगानां गणकः
अंगगणकः अंगगणिका
अंगगणकः अंगगणिका
बीजानि वपति बीजानां वपकः बीजानां वापकः वापिका
वापकः बीजानां वापिका समासे
बीजवपकः
वापकः
वापकः
बीजवापकः बीजवापिका इति रूपं भवति हि हू सोस् सीड्स् सो बीजानां वापकः बीजानां वापिका इत्येवं रूपं भवति तत्र कश्चित् प्रश्नः समासे एकवचनम् एव वा इति समासे वचनं न ज्ञायते सो यथा गृहनिर्मायकः इत्युक्ते सः एकं गृहं निर्माति वा बहूनि गृहाणि निर्माति वा एवं कथालेखकः एकां कथां लिखितवान् वा बह्वीः कथाः लिखति वा इति न ज्ञायते सो सः समासस्य स्वभावः सो समासे वचनं वचन आफ् द पूर्वपद इन् षष्ठी तत्पुरुष पूर्वपदस्य वचनं न ज्ञायते प्रसङ्गानुगुणं ज्ञातव्यम् यु शुड् नो अकार्डिङ्ग् टु द काण्टेक्स्ट् द समास इट्सेल्फ् विल् नाट् टेल् यू द वचन एते अंशाः युट् प्रत्ययान्तानां सामान्य अंशाः अस्माभिः ज्ञाताः विशेषांशाः अधिकतया न सन्ति देर् इस् नाट् मच् इन् नूल् सारि नूल् विच् इस् नाट् covered as in it is there are some aspects which are not required right now so other than the normal case there are some other usages of null etc kintu na uchyate idani na apekshate so what we have learned so far is enough eka eva amsha maya vaktum ishyate shun iti ekah pratyayah asti so which is different than null kintu tatrapi aka itteva अन्तं भवति यतोहि तत्रापि वु इत्यस्ति शुन् इफ् यु टेक् अवे द श अण्ड् न सो वु इत्येव तत्रापि अक इत्येव अन्ते श्रूयते शिल्पिनि शुन् इत्येव सूत्रमस्ति शिल्पं नाम विशिष्टम् इट्स् अ स्किल् ओके सो इन् पर्टिक्युलर् स्किल्स् यु हेव् द शुन् प्रत्यय सो द वार्तिका सेज़् इट्स् ओन्ली फार् त्री वर्ड्स् सो रजकः नर्तकः अण्ड् खनकः अयं विशेषः यत्र श्वुन् भवति तत्र स्त्रीलिङ्गे रूपं भिद्यते ओके सो द पुल्लिङ्ग फार्म्स् डु नाट् डिफर् बट् द स्त्रीलिङ्गे भेदः भवति ओके सो बिकास् आफ् इट् वी आल्सो हेव् दिस् नर्तकी सो ऐ मेन्शनिङ्ग् दिस् ओन्ली बिकास् द फार्म् नर्तकी इस् मोर् कामन् देन् नर्तिका So it is because nartaka shabdaha nulantaha api asti. So it is also there nulanta nrityati iti. Kintu shun api bhavati. Yada shun bhavati tada nartaki iti strilinge bhavati. Nartakyaha nartaki iti rupam asti. So nartaki is not wrong. For other things it is wrong. So this pratyaya is only for these three. So rajakaha. वस्त्रक्षालकः सो ही हू वाशस् क्लात् द वाशर्मन् इस् काल्ड् रजकः स्त्रीलिङ्गे रजकी सो नर्तकः डान्सर् नर्तकी खनकः खनकी सो दर् इस् खनक ही हू डिग्स् अण्ड् खनकी सो एतेषां त्रयाणां धातूनाम् एव अयं प्रत्ययः भवति सो दिस् प्रत्यय इस् ओन्ली फार् दीस् त्री So in this case, the strilinga will differ. Okay? I mentioned it only to for the Nartaki. Okay. So Nartaki is correct. Nartika is also correct. Nartika iti nul. So Nartaki iti shun. But we commonly use Nartaki more. Okay. So that is why to avoid the confusion, I wanted to mention this point. So Anyaha kopi amshaha naste nulante. So sambadhani kanichana sutrani uchyante. Ichanti te adhikam yatu marahanti. Okay, so I'll just mention the sutras which are some of the sutras which are related to nul. So nul pratyaya vidhayakam sutram asti nul truchau. Okay, nul and truch are two suffixes which are given here. So yuvor anakau ityanena vu ityasya sthane aka iti adeshaha. So in yut we had yu ana. Yuvoho ana akau. Yatra yatra pratyaye yu bhavati tatra ana. Evam yatra vu bhavati tatra aka. Atayeva vu ityasya sthane aka ityadeshaha bhavati. There are several sutras which are concerned with deriving the forms. Okay, the forms which we derived. Yatha mrijehe vrithihi. Atayeva mrijadhatoho marjakaha na bhavati marjakaha iti tupam bhavati. Achoiniti iti vrithihi. So ajantanam vrithihi. It is because of this that e becomes I and u becomes au, etc. So tatra achoiniti iti vrithividhayakam sutram. Ata upadhayaha iti vriddhihi. So when akara is in the upadha, etha pathu pathaka, pathu pathaka, tatrapi vriddhihi bhavati anena sutrena. So puganta laghupadhasya cha iti guna vidhayakam sutram. So laghupadha, so the upadha has ikara, it becomes a, the ukara becomes o, etc. So these are the normal sutras for prakriya. So there are certain special sutras which give rise to the special forms of nul. So you have the hanastaha achinnalohu. Because of this we have the ghataka. Okay, hanu, you get the takara instead of the nakara. So there is hohantar ninneshu which becomes ha becomes gha. So you have ghataka. So ato yuk. For akaranta dhatus we have the yakaradama by ato yuk chintratohu. Noda topadeshasya mantasya. So we have the amanta dhatus, right? We saw that if the swara is udatta, udattopadesha. So if the swara is udatta, then we do not have the dirgha, right? We saw ramakaha, shamakaha, etc. So it is because of this sutra. Janivadhyoshcha. So you have janakaha. So for jana, you don't have the dirgha. So you have the na coming up. So janaka and vadhaka. Jagraha avichinnalyetsu. So the jagra, instead of vritti, we have guna. So jagarakaha instead of the jagarakaha. So these are all the sutras which are concerned with the special forms. So if you are interested, you can look them up and understand what the sutra actually says. So idani nul pratyaya vishaye keke mukhyah amshaha asmabhihi achitaha iti sankshepena uchyate. So vu ityasya sthane aka iti shruyate. Kartrarthakah ayam pratyayah. Sarvebhyah dhatubhyah nul pratyayah bhavati. Rupa siddhihi katham. Kidrishebhyah dhatubhyah kidrisham nulantam rupam bhavati iti jnatavantah. Vishesha rupani kani ghatakaha madhyakaha janakaha ityadi jnatam. Trishu lingeshu rupani katham bhavanti akarantah pullingah akarantah strilingah yatra ikarah shruyate karika pathika ityadi. Akarantaha napumsakalingaha. Trishu lingeshu rupani katham bhavanti iti drashtavantaha. सर्वासु विभक्तिषु उलन्तस्य प्रयोगः अपि ज्ञातः कर्मपदं षष्ठी विभक्तौ भवति इत्यपि अवगतम् अनेन नुल् प्रत्ययस्य विषयः समाप्तः अग्रिमवर्गे अन्यः प्रत्ययः आरभ्यते अग्रिमसप्ताहे वर्गः नास्ति So we do not have a class the next week, which is 27th of May. So we will have a class on the week after that. So, atra atyatana pachaha samaptaha. Prashnan prashtamitshanti chet krapaya hastam uttolayantu. So if you have any questions, please... अत्र एकः प्रश्नः अस्ति मुदाकरात्तमोदकम् सो द अदर् वर्ड्स् आर् दे नाट् नुलन्त मोदक इत्यपि नुलन्तमेव मोदयति इति मोदकम् बट् इट् इस् रूढ इन् द सेन्स् आफ् अ स्वीट् ओके मोदकः यः मोदयति हि हु डिलैट् और् हि हु गिव्स् डिलैट् इस् मोदक इन् दिस् पर्टिक्युलर् केस् द वर्ड् मोदक Here, in this context, it is used in the sense of that particular sweet which is dear to Ganesha. The other words are not Unakaratta Modakam, Sada Vimukti Sadhakam, Kaladhara Avatamsakam. Avatamsaka is an ear ornament. Okay, it's a, I think, a Ka Pratyaya, not Aka. So it is not Mul. So Avatamsaka is an, not a ear ornament, sorry, the head, that which is worn on the head, Kaladhara Avatamsakam, he who wears moon as his Shiro Bhushanam. Vilasi Loka, Rakshakam, Rakshakam is Mul, Anayakaika Nayakam, Nayaka is Mul, Vinashitebha Daityakam, so Daityaha Eva Daityakaha. So there it is a Ka Pratyaya again, so Ka is a Tadhita suffix. Natashu Bhashu Nashakam. Nashaka is Mul. Namamitam Vinayakam. So Vinayaka is also derived from Nayaka. Any Prashna? Kumar Shankar.
Good morning. I just want to know why this Wu becomes Aka. It looks like relatively unconnected. All these
things
are very, confirmation is very radical.
See, there are several things. Why only Wu, only Panini can answer it. I mean, he could have probably chosen something else. But why the transformation is because there are several pratyayas which have Wu as their part. All of them end up getting the Aka. Okay. So, Wu is a common factor of those. Say, Nul or Shun or Wui, etc. So, all of them, you hear the Aka. See, always the front end is fixed, that is the Aka is what you hear, so we cannot change it. The back end, it is what Panini did. So why did he make it as Wu? Because there is not an answer to it.
Okay, thank you.
In that Mokshapuri Shloka, no?
Yeah.
It is only seven. The thing is Avantika Puri it is called.
That's right. The Puri is has to be taken as just a city and not the famous city.
Yeah, correct. It is connected to Avantika. It is Avantika Puri and Dwaraka.
And, yeah, you can connect it to anything, but I mean that is the only word which can be interpreted otherwise.
Yes,
nobody
yes.
has this Maya is a famous city which was there earlier. So it is only the word Puri which has to be not taken as the actual place, but it means a city. Okay, that is the only way where we can justify the saptaitaha. Sridhar,
namaste, Mani. Bhavati uktavati uttolayanto. Itasya padasya dhatuhu kaha.
Dhatuhu uttolayati means to lift. Tasmin arthe prayoga. Tulada, dhatu itself means to balance, to weigh. Ut upasargaha yada bhavati, tada unnayati ityarthe prayogah asti.
Oh, tulye vavah.
Aman, tulada.
Tulada. Dhanyavada.
So, any other questions? ओके अत्र एकः प्रश्नः प्रश्नत्रयम् एकं अस्माकं बहु मुख्यं त्या सेवायाः धनसाहाय्यं कर्तुम् इच्छामि कथं करणीयम् इति सो प्लीज डू कीप सेइंग व्योमा लिंग्विस्टिक लैब्स इज अ नॉन प्रॉफिट ऑर्गेनाइजेशन व्हिच फॉर द कॉज ऑफ संस्कृत एंड संस्कृति सो दोज हु want to or those who can support us, please visit our website vyomalabs.in. So there is a donate thing. You can either send in your contributions by check or you can even do an online transfer. All the details for the transfer will be in the website. Okay. So we are actually currently we're looking for, you know, for sustaining, for building a corpora fund for sustaining our company. So there is a feature where we are trying to get a few people who can give, say, something like 5,000 rupees, which is our for sustenance champion. So if you can donate that, it will help us a lot in sustaining our efforts. Okay. So please visit our website. If you have any questions, please send an email. So I'll send you the details or anything that you need. Okay. So the other question, is there any other language in the world which has a comparable structure in grammar? Well, not really. I mean, that is why Sanskrita is considered as one of the most structured cases of descriptive grammar, which gives, I mean, to the extent possible, even the grammar of Sanskrita, there might be some words which are not derivable of this thing, but definitely Sanskrita grammar is one of the most structured grammars of the world. Okay, so the derivation of words is also fairly regular. Even though we keep seeing some irregular forms, the extent of irregularity is quite less, and the description is definitely one of the most comprehensive which is available across all languages. Varadhan, is that right?
Namaste. Is that, I mean, I think you answered the question, like, is there a suggested Guru Dakshana?
Yeah, as I said, suggested, yes, please. Whatever you can, whenever, it is fine. It's for the cause. So, that's there.
Okay. Thank you.
Yeah. So, avalokayata ityasya kaha artha. Avalokayata is just to mean to see or to observe. So, wherever the heading is avalokayata, it means just observe what is being shown in the this one. So, avalokayata means just see or observe. What is the modern name of Avantika Puri and Maya City? So, Avantika is around the, you know, the Ujjain. The modern city of Ujjain was known as Avantika, a very famous city in older India. Maya, I'm not sure what is the modern equivalent. To find out. The city of Gaya. So apparently the Gaya, the thing is known as Maya, according to one of the dictionaries. So I'll find out about Maya, I'm not sure. So a dictionary says Gaya, the city of Gaya is also called Maya, which is probably Mokshadayikaha, so it is probable. I'll find out about it. Any other questions? So we stop for today. Or Haridwar. Some people say that Maya is Haridwar. I will find out what are the references about Maya. अस्तु अत्र स्थगयामः. यस् ओके द लास्ट् क्वेश्चन् रजक इस् रञ्ज धातु नाट् नुलन्त. यस् सो रञ्ज धातोः नुलन्ते रञ्जकः रञ्जिका इति भवति, शुन् अन्ते रजकः रजकी इति भवति. धन्यवादाः, अत्र स्थगयामः. गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहस्मिनमो गुरवे, न गुरोः परमं शिशुरस्ति गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. धन्यवादाः. नो क्वेश्चन्स् नेक्स्ट् वीक्. वी विल् रेस्यूम् द वीक् आफ्टर् दट्.